अथ पुरुष सूक्तम् सहस्रशीर्षा पुरुषस् सहस्राक्षस् सहस्रपाद सभूमेव विश्वतो वृत्वात्यतिष्ठत् दशाङ्गुलम् पुरुष एवेदौ सर्वं यद्भूतं यच्च भव्यम् उतामृतत्वशेषानो यदन्ये नातिरोहति एतावानस्य महिमातो जायांश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि त्रिपाद ऊर्ध्व उदयपुरुष पादो सेहा भवत् पुनः ततो विश्वं व्यक्रं मत्सशन नशने अभि तस्मात् विराळ जायत विराज अधिपुरुषः स जातो अत्यरिचद पश्चाद् भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासिदाज्यं ग्रीष्म इद्म शरद्धवि तैयज्ञं बर्हिषि प्रोक्षन् पुरुषं जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्मात् यज्ञात् सर्वहुतस् सम्भृतम् पृषदाज्यं पशुन्तां शक्रे वायव्यान् नारण्यान् ग्राम्याश्रये तस्मात् यज्ञात् सर्वहुतरुचस् सामानि जज्ञिरे छन्दांसि जज्ञिरे तस्मात् यजुस्तस्माद् जायत तस्माद्दश्वा अजायन्त ये केचो अभयादतः गावोह जज्ञिरे तस्मात् तस्माज्जाता अजावयाः यत्पुरुषौ व्यदधु कतिधं व्यकल्पयन् मुखं किमस्य कौ बाहु कौरु पादा उच्येते ब्राह्मणोऽस्य मुखमासीद् बाहुराजन्यकृतः उरु तदस्य यद्वैष पद्भ्यां शूद्रो अजायत चन्द्रमा मनसो जातश्चक्षो सूर्यो अजायत मुखादि इन्द्रश्च अग्निश्च प्राणाद् वायुरजायत नाभ्या आसीदन्तरिक्षौ शीर्ष्णौ द्यौ समवर्तत पद्भ्यां भूमिरदिश श्रोत्रा तथा लोका अकल्पयन् सप्तास्यासन् परिधयस् त्रिस् सप्त समिधकृताः देवा यद्यज्ञन् तन्वान अबध्नन् पुरुषं पशुं यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्न तेहनाकं महिमानस् सचन्त यत्र पूर्वे साध्यास्सन्ति देवाः